एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दहालः। अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य अन्तर्गतं प्रतिनिधिसभायाः प्रत्यक्षपक्षे इदानीं यावत् चतुःपञ्चाशदधिकशतस्य स्थानानां परिणामः सार्वजनीभूतो वर्तते। सार्वजनीभूतस्य मतपरिणामस्य अनुसारेण नेपाली कांग्रेस दलस्य द्वापञ्चाशत्, नेकपा एमाले दलस्य चत्वारिंशत्, नेकपा माओवादी केन्द्रस्य च सप्तदश प्रत्याशिनो विजयिनः संवृत्ताः सन्ति। एवमेव नेकपा एकीकृत समाजवादी दलं दशसु, राष्ट्रिय स्वतन्त्र दलं सप्तसु, राष्ट्रिय प्रजातन्त्र दलं सप्तसु, जनता समाजवादी दलं षट्सु, लोकतान्त्रिक समाजवादी दलं चतुर्सु, नागरिकोन्मुक्ति दलं त्रिसु, स्वतन्त्र प्रत्याशिनश्च पञ्चसु स्थानेषु विजयं लब्धवन्तः सन्ति। अतपरं एकादश स्थानानां परिणामः अवशिष्टो वर्तते। सर्लाही जनपदस्य द्वितीय निर्वाचन क्षेत्रात् नेपाल समाजवादी दलस्य प्रत्याशी महेन्द्र राय यादवः त्रयोविंशतिं सहस्राणि 29.5% च मतानि अवाप्य प्रतिनिधिसभायाः सदस्यपदे निर्वाचितो वर्तते। यादवस्य निकटतम प्रतिस्पर्धी लोकतान्त्रिक समाजवादी दलस्य राजेन्द्र महतो 21.5% च मतानि प्राप्तवान् वर्तते। रूपन्देही जनपदस्य तृतीय निर्वाचन क्षेत्रात् राष्ट्रिय प्रजातन्त्र दलस्य दीपक बोहरा 37.7% मतानि प्राप्य प्रतिनिधिसभायाः सदस्यपदे विजयी सम्वृतोऽस्ति। बोहरा विदस्य निकटतम प्रतिस्पर्धी गृहमन्त्री नेपाली कांग्रेस दलस्य प्रत्याशी बालकृष्ण खाँड 37.4% मतानि लब्धवान् वर्तते। धनुषा जनपदस्य प्रथम निर्वाचन क्षेत्रात् जनता समाजवादी दलस्य प्रत्याशी दीपक कार्की 27.3% मतानि प्राप्य प्रतिनिधिसभायाः सदस्यपदे निर्वाचितो वर्तते। कार्कीणः निकटतम प्रतिस्पर्धी घटबन्धनस्य मातृका प्रसाद यादवः 21.83% मतानि लब्धवान् वर्तते। मोरङ जनपदस्य तृतीय निर्वाचन क्षेत्रात् नेपाली कांग्रेस दलस्य प्रत्याशी डाक्टर सुनिल शर्मा 48.63% मतानि प्राप्य प्रतिनिधिसभायाः सदस्यपदे विजयी सम्वृत्तोऽस्ति। शर्मणः निकटतम प्रतिस्पर्धिना नेकपा एमाले दलस्य भानुभक्त ढकालेन 25.87% च मतानि अधिगतानि सन्ति। बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रात् जनता समाजवादी दलस्य प्रत्याशी रामसहाय प्रसाद यादवः 23.2% मतानि लब्ध्वा प्रतिनिधिसभायाः सदस्यपदे निर्वाचितो वर्तते। यादवस्य निकटतम प्रतिस्पर्धी माओवादी दलस्य शिवचन्द्र प्रसाद कुशवाह 23.68% मतानि प्रापत। एक निर्वाचन क्षेत्रयुतात् हुम्ला जनपदात् प्रतिनिधिसभायाः सदस्यपदे वामलोकतान्त्रिक गठबन्धनस्य पक्षत नेकपा माओवादी केन्द्रस्य छिरिङ दमदुल लामा कार्चेन निर्वाचितोऽस्ति। लामा इत्यनेन 14.1% मतानि अवाप्य विजय अधिगत। एतस्य निकटम प्रतिस्पर्धिना नेकपा एमाले दलस्य दलरावलेन 9.16% मतानि प्राप्तानि सन्ति। सुनसरी जनपदस्य चतुर्थ निर्वाचन क्षेत्रस्य मतगणना स्थगिता वर्तते। सुनसरी जनपदस्य इनरुवावर्तिनी भगवती माध्यमिक विद्यालये विधीयमानायाः मतगणनायाः क्रमे वञ्चनं विहितम् इत्युक्त्वा नेपाली कांग्रेस दलेन विरोध ज्ञापनस्य अनन्तरं मतगणना स्थगितीकृता वर्तते। मुख्य निर्वाचनाधिकृतेन अर्जुन अधिकारिणा त्रुटि सम्बुतेति स्वीकृतम् अस्ति। सुनसरी जनपदस्य चतुर्थ निर्वाचन क्षेत्रे नेपाली कांग्रेस दलस्य पक्षत संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की, एमाले दलस्य पक्षत जगदीश प्रसाद कुशियैते च प्रतिस्पर्धायां वर्तेते। बाजुरा जनपदस्य बुढीगंगा नगरपालिकायाः पञ्चमवडा क्षेत्रवर्तिनी नन्देश्वरी मतदान केन्द्रे ह्यो पुनर्मतदानम् अभवत्। प्रातः 7 वादनात् सायं 5 वादनम् यावत् भयरहिते वातावरणे मतदानम् सम्पन्नमिति निर्वाचनाधिकृतस्य कार्यालयो ज्ञापयति। तत्र अस्यैव मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्नस्य निर्वाचनस्य क्रमे विवादोद्भवनमनु मतदानम् अवरूद्धम् आसीत्। 69 मतदातृभिः युते एतस्मिन् मतदान केन्द्रे सप्तनवत्याधिक पञ्चशतम् मतानि व्यक्तानीति बाजुरा जनपदस्य निर्वाचनाधिकृतस्य कार्यालयः सूचयति। अत्रान्तरे अस्यैव मार्गशीर समासस्य चतुर्थे दिवसे सम्पन्न निर्वाचनयोः स्याङ्जा दोलखा जनपदयोः द्वयोर् निर्वाचन क्षेत्रयोः इदानीमपि मतगणना प्रारब्धा नास्ति। मतदानस्य क्रमे विवादित भवनस्य कारणात् मतगणना न प्रारब्धेति उल्लिखता निर्वाचन आयोगेन विषयोऽयम् अनुसन्धीयमानोस्तीति ज्ञापितम् वर्तते। प्रधानमन्त्रिणः शेरबहादुरदेवाभिधस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये ह्यो मेलवार्ता सम्भूता अस्ति। बालवाटारावर्तिनी प्रधानमन्त्री निवासे सम्पन्ने एतस्मिन् मेलने एतयोर्मध्ये निर्वाचनस्य अद्यावधिक परिणामे विकसित राजनीतिक घटनाक्रमे च केन्द्रीभूय विमृष्टमिति अध्यक्षस्य दाहालस्य सचिवालयेन ज्ञापितमस्ति। सत्ता सहकारिणोः नेपाली कांग्रेस माओवादी केन्द्रयोः प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचने गठबन्धनस्य अवस्थायां निर्वाचनस्य परिणामस्य प्राप्तिक्रमे च विहितं मेलनमेतद् आगामि सहकार्यस्य रूपेण मतमस्ति। राष्ट्रपतिः विद्यादेवी भण्डारी भासते समाजे सबल शान्तेः सुव्यवस्थायाश्च संस्थापनाय विधेः यथार्थ क्रियान्वयने बलं प्रदाय भ्रष्टाचार नियन्त्रणं विधातव्यम्। एन्टी करप्शन एकेडेमी नेपाल नाम्न्या भ्रष्टाचार विरोधी संस्थया ह्य काष्ठमण्डपे आयोजिते सदाचार दीप सम्मान प्रदान कार्यक्रमे राष्ट्रपतिः भण्डारी अतर्कयत् राष्ट्रस्य सर्वांगीण विकासाय भ्रष्टाचार विपुलावरोधस्य रूपेण वर्तते। राष्ट्रपति भण्डारी अवोचत् राष्ट्रस्य विकासाय समृद्धये च सुशासनम् प्रथम शपथो भवति। राष्ट्रपति भण्डारी अगदत् आवधिक निर्वाचनम् विधेय शासनम् पारदर्शिता उत्तरदायित्वम् चेति लोकतान्त्रिक मूल्य मान्यताः अवलम्ब्य सहजरूपेण जनतायाः आवश्यकताः सम्बोधयितुम् राज्यस्य ध्यानम् केन्द्रीकर्तव्यम्। जनकपुर धाम्नि समायोज्यमानस्य सप्ताहव्यापिनः विवाह पञ्चमी महोत्सवस्य अन्तर्गतम् ह्य तिलकोत्सव पर्व सम्पन्नमस्ति। पुरा त्रेतायुगे भगवतः श्रीरामचन्द्रस्य सीतादेव्याश्च शुभ विवाहस्य स्मरणे जनकपुर धाम्नि सप्ताहावधि आयोज्यमानस्य श्री सीताराम विवाह पञ्चमी महामहोत्सवस्य अन्तर्गतम् ह्य चतुर्थे दिने राम मन्दिरस्य प्राङ्गणे तिलकोत्सव विधि सम्पन्नो वर्तते। तिलकोत्सव कार्यक्रमे राम मन्दिरस्य मूल महन्तेन रामगिरिणा जानकी मन्दिरस्य उत्तराधिकारिणा महन्तेन राम रोशनदास वैष्णवेन च सह साधु सज्जनानाम् योगी सन्यासीनाम् स्थानीय राजनीतिक दलानाम् नागरिक समाजस्य च प्रतिनिधिनां च सहभागिता आसीत्। विवाह पञ्चमी महामहोत्सवस्य अन्तर्गतम् अद्य मृत्तिका खननोत्सवम् स्वयंवरोत्सवम् रात्रौ जानकी मन्दिरस्य प्राङ्गणे आकर्षक मण्डपे शुभ विवाहोत्सवम् च समायोज्य परश्वः त्रयोदशे दिवसे विवाह पञ्चमी पर्वेदम् समाप्तिम् एष्यति। क्षेत्र विकास कोषेण सह मारवाडी सेवा समित्या विहिताया संविधाया वैपरीत्येन पशुपति गोशाला धर्मशाला क्षेत्रे आपणाल्पहार गृह चिकित्सालयानां संचालनाय मापदण्डानां पूरणेन विना निर्मितानां संरचनानां भञ्जनकार्यं ह्य प्रारब्धमस्ति।